रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनाय प्रत्यक्षपक्षे ह्य 25,000 67,000+ च प्रत्याशिभिः मनोनयनं पञ्जीकारितं वर्तते। प्रतिनिधिसभायाः पक्षे 65,000+ निर्वाचनक्षेत्राणां कृते 1,000+ 28,000+ च प्रदेशसभानां पक्षे 30,000+ निर्वाचनक्षेत्राणां कृते 1,000+ 45,000+ च प्रत्याशिभिः मनोनयनं पञ्जीकारितमिति निर्वाचनायोगो ज्ञापयति। प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य सभापतिना च सेवादेवाभिधेन प्रतिनिधिसभा सदस्यस्य निर्वाचनाय डडेलधुरा जनपदात् प्रत्याशिता पञ्जीकारिता वर्तते। अनेन प्रतिनिधिसभायाः सदस्याय ह्य 7वारं प्रत्याशिता पञ्जीकारिता अस्ति। प्रधानमन्त्रिणः देवाभिधस्य पक्षतः एतदीय धर्मपत्न्या कांग्रेस दलस्य केन्द्रीय सदस्यया च डाक्टर आरजू राणा देवाभिधया मनोनयनं पञ्जीकारितं वर्तते। नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना झापा जनपदस्य 5वं निर्वाचन क्षेत्रात् मनोनयन पत्रं पञ्जीकारितं वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन गोर्खा जनपदस्य द्वितीय क्षेत्रात् मनोनयन पत्रं पञ्जीकारितमस्ति। नेकपा एकीकृत समाजवादिनः अध्यक्ष पूर्व प्रधानमन्त्री च माधव कुमार नेपालः रौतहट जनपदस्य प्रथम क्षेत्रात्, वरिष्ठ नेता पूर्व प्रधानमन्त्री च झलनाथ खनालश्च इलाम जनपदस्य प्रथम क्षेत्रात् मनोनयन पत्रं पञ्जीकारितवन्तौ। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः तनहु जनपदस्य प्रथम क्षेत्रात्, उपसभापतिः पूर्णबहादुर खड्का सुर्खेत जनपदस्य प्रथम क्षेत्रात्, अपरः उपसभापति धनराज गुरूङ स्याङ्जा जनपदस्य द्वितीय क्षेत्रात्, महामन्त्री गगन कुमार थापा काष्ठमण्डपस्य चतुर्थ क्षेत्रात्, अपर महामन्त्री विश्वप्रकाश शर्मा च झापा जनपदस्य प्रथम क्षेत्रात् प्रत्याशिनः सन्ति। नेकपा एमाले दलस्य वरिष्ठ उपाध्यक्ष ईश्वर पोखरेलः काष्ठमण्डपस्य 5वं क्षेत्रात् प्रतिनिधिसभा सदस्यस्य प्रत्याशी वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला मोरङ जनपदस्य 6ष्ठ क्षेत्रात्, सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की सुनसरी जनपदस्य 4थ क्षेत्रात्, नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह काष्ठमण्डपस्य प्रथम क्षेत्रात्, एतत् दलस्य अपर नेता कृष्ण प्रसाद सिटौला झापा जनपदस्य तृतीय क्षेत्रात्, अशैव दलस्य केन्द्रीय सदस्य गृहमन्त्री च बालकृष्ण खाँड च रूपन्दे जनपदस्य तृतीय क्षेत्रात् प्रत्याशिताम् पञ्जीकारितवन्तः। एवमेव अर्थमन्त्री जनार्दन शर्मा रूकुम पश्चिम जनपदात्, नेकपा एमाले दलम् परित्यक्तवान् नेता घनश्याम भूषालः रूपन्देही जनपदस्य प्रथम क्षेत्रात् स्वतन्त्र रूपेण, राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन झापा जनपदस्य तृतीय क्षेत्रात्, लोकतान्त्रिक समाजवादी दलस्य अध्यक्ष मन्त ठाकुर महोत्तरी जनपदस्य तृतीय क्षेत्रात्, जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवश्च सप्तरी जनपदस्य द्वितीय क्षेत्रात् मनोनयनं पञ्जीकारितवन्तः। निर्वाचनतालिकायाः अनुसारेण आश्विनस्य 26वें दिवसस्य दिवा एकवादनात् 3वादनं यावत् प्रत्याशिनाम् अन्तिम नामावली प्रकाशनम्, एतस्मिन्नेव दिवसे अपराह्नस्य 4वादनात् सायं 7वादनं यावत् प्रत्याशिभ्यो निर्वाचन चिन्ह प्रदानम्, आगामिनो मार्गशीर्ष मासस्य 4थे दिवसे प्रातः 7वादनात् सायं 5वादनं यावत् मतदानं च भवितारः। आगामिनो मार्गशीर्ष मासस्य 4थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः निर्वाचनाय 31,000+ महिलाभिः प्रत्याशितायै मनोनयन पत्रं पञ्जीकारितं वर्तते। निर्वाचनायोगस्य ह्य रात्रौ 9वादन पर्यन्तं प्राप्तानां तथ्याङ्कानाम् अनुसारेण प्रतिनिधिसभायाः प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षे प्रतिस्पर्धितुम् 31,000+ महिलाभिः प्रत्याशिता पञ्जीकारिता वर्तते। प्रस्तुत प्रत्याशितासु नेपाली कांग्रेस दलस्य पक्षतः 5 जना वर्तन्ते। एतासु अर्घाखाँची जनपदात् कांग्रेस दलस्य नेत्री पूर्वोपसभामुखश्च पुष्पा भूषालः तेह्रथुम जनपदात सीता गुरूङ, मोरङ जनपदस्य द्वितीय निर्वाचन क्षेत्र सुजाता कोइराला, सिराहा जनपदस्य द्वितीय निर्वाचन क्षेत्र चित्रलेखा यादव, मकवानपुर जनपदस्य प्रथम निर्वाचन क्षेत्रात महालक्ष्मी उपाध्याय डिनाच वर्तन्ते। एवमेव नेकपा एमाले दलस्य पक्षतः सप्तभि महिलाभि प्रत्याशिताय मनोनयन पत्रम पञ्जीकारितमस्ति। एतासु स्याङ्जा जनपदस्य प्रथम निर्वाचन क्षेत्रात् पद्मा अरियालः, कञ्चनपुर जनपदस्य तृतीय निर्वाचन क्षेत्रात् निरूप देवीपालः, दाङ जनपदस्य प्रथम निर्वाचन क्षेत्रात् शान्ता चौधरी, दाङ जनपदस्य तृतीय निर्वाचन क्षेत्रात् कोमल ओली, सुनसरी जनपदस्य तृतीय निर्वाचन क्षेत्रात् भगवती नेउपाने, टी जनपदात गौरी ओली, कास्की जनपदस्य द्वितीय निर्वाचन क्षेत्रात विद्या भट्टराई च सन्ति। नेकपा माओवादी केन्द्रस्य पक्षतः काष्ठमण्डप जनपदस्य द्वितीय निर्वाचन क्षेत्रात ओनसरी घरती इत्यनया, काष्ठमण्डप जनपदस्य नवम निर्वाचन क्षेत्रात कल्पना धमला इत्यनया, काष्ठमण्डपस्य सप्तम निर्वाचन क्षेत्रात मानसी यमी भट्टराई इत्यनया, ललितपुरस्य तृतीय निर्वाचन क्षेत्रात पम्फा भूषालः इत्यनया, दाङ जनपदस्य द्वितीय निर्वाचन क्षेत्रात रेखा शर्मणा च प्रत्याशिता पञ्जीकारिता वर्तते। एवमेव नेकपा एकीकृत समाजवादी दलस्य पक्षतः गुल्मी जनपदस्य द्वितीय निर्वाचन क्षेत्रात रामकुमारी झाँक्री इत्यनया प्रत्याशिता पञ्जीकारिता अस्ति। राष्ट्रिय प्रजातन्त्र दलस्य पक्षतः मोरङ जनपदस्य तृतीय निर्वाचन क्षेत्रात रेखा थापा इत्यनया प्रत्याशिता प्रस्तुता वर्तते। प्रतिनिधि सभायाः पक्षे समग्रतः सहस्रद्वय चतुसप्तत्यधिक शत चतुष्टये च प्रत्याशिषु, सहस्रद्वयम् द्वाचत्वारिंशदधिक शतद्वयम् च पुरूषाः, एकत्रिंशदधिक शतद्वयम् महिलाश्च प्रत्याशिनः प्रतिस्पर्धायाम् वर्तन्ते। प्रदेश सभासु च सहस्रत्रय त्रिनवत्यधिक शतत्रय च प्रत्याशिषु, पुरूषा सहस्रत्रयम् नवनवतिश्च, महिला त्रिनवत्यधिक शतद्वयम् च, अन्यम् एकञ्च सन्तीति निर्वाचन आयोगेन ज्ञापितम् वर्तते। नेकपा एमाले दलेन मकवानपुर जनपदस्य प्रथम निर्वाचन क्षेत्रात प्रतिनिधि सभायाः सदस्यपदे राप्रपा नेपालस्य अध्यक्षाय कमल थापा इत्यस्मै प्रतिस्पर्धितुम् अनुमतेः प्रदानानन्तरम् एमाले दलस्य कार्यकर्तृभिः हेटौडावर्तिनी एमाले दलस्य जनपद दल कार्यालये पूर्वेद्यो तालवन्दनम् विहितम् वर्तते। विजयादशमी पर्वणः अन्तिम दिने कोजाग्रत पूर्णिमायाः अवसरे ह्य उपराष्ट्रपतिः नन्दबहादुर पुन भक्तपुरस्य प्रसिद्धम् नवदुर्गा मन्दिरम् गत्वा नवदुर्गा भवान्याः पूजार्चने विधाय टीका प्रसादौ अगृह्णात्। राष्ट्रप्रमुखस्य रूपेण राष्ट्रपतिना प्रसादग्रहणस्य परम्परा सत्यपि राष्ट्रपतेः विद्यादेवी भण्डारिणः अस्वस्थतायाः कारणेन चिकित्सालये प्रवेशानन्तरम् राष्ट्रपतेः अनुपस्थितौ उपराष्ट्रपतिः पुन नवदुर्गा भवान्याः मन्दिरे पूजार्चनायै सहभागी अभवत्। उपराष्ट्रपतये पुन इत्यस्मै नवदुर्गा मन्दिरस्य अर्चकेन नवदुर्गा भवान्याः मन्दिरे स्वागतम् संकल्पम् च कारयित्वा नवदुर्गायाः टीका प्रसादौ प्रदत्तौ आस्ताम्। तनौ जनपदे डेंगू रोगस्य रुग्णानां संख्याया वर्धनस्य पश्चात् जनपदस्य मुख्यालयवर्तिनी दमौली चिकित्सालये रुग्णानां कृते शय्यानाम् अभावः जायमानोऽस्ति। परह्यः एकस्मिन्नेव दिने एकादश जनेषु डेंगू रोगस्य संक्रमणं पुष्टीभूतमिति दमौली चिकित्सालयो ज्ञापयति। अविरल वर्षाणाम् कारणेन बैतडी जनपदस्य सिगास ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी शाण्डा स्थाने नुवागरीगढ नद्याम् दुरापन्नेन जलविप्लवेन पञ्चविंशति रोपनिमित्तम् क्षेत्रम् प्रवाहितम् वर्तते। जलविप्लवेन क्षेत्रम् धान्यराशिश्च प्रवाहितौ स्तः। एवमेव सिगास ग्रामपालिकाया पञ्चमवडा क्षेत्रवर्ति दुगाड स्थानम् उच्चैः संकटम् प्राप्तम् अस्ति। इति समाचारः।